सर्वेभ्यः नमस्कारः। अस्माकं पाणिनीय नूतनपाणिनीयवर्गः इदानीं प्रारभ्यते, प्रवर्तते च। इतः प्राक् अस्माभिः सर्वप्रथमं कश्चन तत्र प्रवेशः कृतः, तदनन्तरम् अस्माभिः गते वर्गे च प्रागते वर्गे च अस्माभिः तत्र अष्टाध्याय्याः मूलयन्त्रणानि इति तथा स्वरूप् महोदयेन इति तथा उच्यते, नाम केचन नियामः वा, केचन प्रकारः वा, केचन उपायाः वा अपेक्षिताः सन्ति, यान् आश्रित्य पाणिनिमहर्षिणा अष्टाध्यायी रचिता अस्ति, अपि च अस्माभिः पठ्यते सा, नाम अयं ग्रन्थः सा अष्टाध्यायी, तान् विहाय तत्र तस्याः अवगमनं कदापि सुरलं सरलं सुतरं वा न स्यात्। अत एव तत्र केचन विषयाः प्राक् अष्टाध्यायीपठनात् प्राक् एव अस्माभिः अवश्यम् एव केचन विषयाः ज्ञेयाः सन्ति। सर्वप्रथमम् आसीत् सर्वप्रथमम् अस्माभिः किं तत्र प्रत्याहारः प्रत्याहारः अथवा प्रत्याहारग्रहणम् इति किञ्चन अस्ति, वस्तुतः महान् नाम प्रधानभूतः एव विषयः अस्ति। सोऽयम् उपायः, सोऽयं प्रकारः अष्टाध्याय्याम् अनेकदा अनेकेषु प्रकारेषु अनेकेषु प्रसङ्गेषु पाणिनिना आश्रियते। परन्तु तत्सर्वम् इदानीं सर्वाणि उदाहरणानि अस्माभिः न दृष्टानि, परन्तु तस्य सम्बन्धिः नाम तस्य प्रत्याहारग्रहणस्य तस्य सम्बन्धिः अस्ति कश्चन विषयः, नाम महेश्वरसूत्राणि। महेश्वरसूत्राणि वस्तुतः प्रत्याहारग्रहणं न केवलं महेश्वरसूत्रेषु अस्ति, अयं प्रत्याहारग्रहणं नाम प्रथमं वर्णं स्वीकृत्य अन्तिम इत्संज्ञकवर्णं स्वीकृत्य च कश्चन संज्ञा काचन संज्ञा विरच्यते, यथा अङ् इति अनया संज्ञया अनेके वर्णाः स्वीक्रियन्ते इति अयं प्रत्याहारग्रहणम् इति अयं प्रकारः अनेकदा पाणिनीये दृश्यते, परन्तु महेश्वरसूत्रेषु सः प्रकारः तु सरलः एव दृश्यते। इदानीं तात् आश्रित्य किञ्चित् अभ्यस्य अग्रे गच्छामः इति मन्ये। वस्तुतः अन्यत् अपि किञ्चित् अस्माभिः आरब्धम् आसीत् गते वर्गे, परन्तु इतः प्राक् तत्र अभ्यासरूपेण किञ्चित् इव पश्यामः, नाम यतोहि केभिश्चित् तत्र उक्तमासीत् कृपया अभ्यासः कर्तव्यः, तत्र तु बहु अभ्यासं कर्तुं न शक्यते, परन्तु किञ्चित् कुर्मः। इदानीं तत्र प्रति क्रमं गच्छामः इति मन्ये। तत्र वीणा भगिनी अस्ति वा? उच्यतां कृपया अल् अल् वदामः इति चेत् अनेन किं स्वीक्रियते?
अल् इति उक्ते सर्वाणि स्वराणि अपि व्यञ्जनानि।
सम्यक्। अक् इति अस्य किं भवति?
इति उक्ते अ इ उ ऋ ऋ।
समीचीनम्। अपि च एङ् नाम कवर्गीयः नकारः, कान्त्यङ्नकारः एङ् इति चेत् किं भवति?
ओ ए अपि ओ
ए ए
ओ
ए ओ एवं समीचीनम्। ऐच् इति
ऐ औ।
सम्यक् सम्यक्, धन्यवादः। तर्हि अरविन्दमहोदय
नमस्ते महोदय।
नमस्कारः। तर्हि अट् अट् किं भवति?
आ इ उ ऋ लृ ए ओ ऐ औ हा य व र।
सम्यक्, अट् इति अनेन स्वीक्रियते। यर् इति किं भवति?
यर्
यर्
या व र ल ഞമഗണന ജപ ഘടത ജപഘടത കഫചട ചടതൗ വോർണിംഗ് കപയ ശശ സ
ശശ ശശ സ इदानीं सम्भूय इदानीं कानि कानि व्यञ्जनानि सर्वाणि व्यञ्जनानि परन्तु एकं विहाय सर्वाणि व्यञ्जनानि किं विहाय हाकारं विहाय सर्वाणि व्यञ्जनानि यर् इति बहुधा प्रयुज्यते यर् इति अस्माभिः अपि कदाचित् अचिरात् एव दृश्यते समीचीनं यै इति अनेन किं भवति यय् अरविन्द महोदय भवान् अपि वदतु
ഞമഗണന ജപ ഘടത ജപഘടത കഫച ചടത കപ കപ
കപ ഇതാനും കിം ഭവതി തത്ര ഉഷ്മാ ഉഷ്മാനാഹ വിഹായ സർവേ ശശ സഹ ഇതി സംതാര ചത അപി ച യൈ വശ് വശ് നമ ശ ശക് ശിവ ശിവ ശ वश् इति अनेन किं भवति
वश् र ल झब गण न झब घडद जब गडद
जब गडद परन्तु प्रथमा किम् आसीत् भवता य इति उक्तं परन्तु वश् इति
चेत्
समीचीनं सम्यक् तर्हि इष् इष् अपि वदतु परन्तु तत्र इष् इष् क्षम्यताम् इष् यथा इषु वा अथवा विशेष
इ उ ऋल् ऋ ए ओ ऐ औ हय व र ल ञमगण न झब घडद
घडद सम्यक् समीचीनं धन्यवादः तर्हि वेदा भगिनी भवती अपि तत्र किम् इश् आसीत् अश् अश् शिवश अश् इत्यनेन किं भवति
ऐ उ ऋ लृ ए ओ ऐ औ हय वर ल ञमङ्गणन झब गड द श
सम्यक् तर्हि सर्वाणि किं भवति वयं सर्वे वर्णाः सर्वे स्वराः अपि च
सर्वे नाट् सर्वे वर्णाः सर्वे स्वराः अपि च हय वरल ञमङ्गनं अनुनासिक जभ गढ जभ
अनुनासिकवर्णाः अपि च झभ घढध झब गडद इति इमे सर्वे इमानि सर्वाणि व्यञ्जनानि मृदुव्यञ्जनानि इति उच्यते
मृदुव्यञ्जनानि
इङ्ग्लिश् मध्ये वोयिस्ड् व्यञ्जनानि इति उच्यते सम्यक् तर्हि किं झल् झल्
झल् झल् झल् जभ गडद जब गडद कप छट स कप स ह झल् झल् बिकन् झ जभ गडद जब गडद कप छट त च कप शशस हल्वा अनुनासिक
विहाय
सर्वे वर्णाः अपि च
अपि च अनुनासिकान् विहाय अपि च
हयवरल
हातो अस्ति जवारा अन्तस्थान् अन्तस्था इति अन्तस्थान् विहाय अनुनासिकान् विहाय वा अपि अन्तस्थानि व्यञ्जनानि विहाय अनुनासिकानि विहाय च सर्वाणि व्यञ्जनानि सम्यक्. अनन्तरं एतत् किमस्ति झल् इदानीं जश् जश् शिव शिव शिव
जबगडद
न तावदेव जबगडद
जबगडद
जश् तत्र वस्तुतः अपि अनेकदा आगच्छति जश् इति. इदानीं के तत्र वर्गीयः प्रथमः न तृतीयः
तृतीयवर्गव्यञ्जनानि उक्त्वा
जश् जस् भवति तृतीय क्षम्यतां. सम्यक्. अपि च मय् मय्
मय मय् मय् म गण झ गढद जब गढद कप च चटत कप मय्
कप तावदेव कप. सम्यक्. इदानीं भवती एवं वदतु इदानीं सर्वाणि वर्गीयव्यञ्जनानि
केन
प्रत्याहारे वर्गीयव्यञ्जनानि केन स्वीक्रियते स्वीक्रियन्ते
विहाय
शस विहाय अपि च हयवरल विहाय
हयवरल विहाय अन्तस्था विहाय ऊष्माणः विहाय वर्णानि विहाय
तावदेव.
वदतु
वर्गीयानि सर्वाणि वर्गीयानि व्यञ्जनानि
सर्वाणि वर्गीयानि व्यञ्जनानि वुड् बि लैक् हल्
न हल् अनेन सर्वाणि व्यञ्जनानि एव स्वीक्रियन्ते परन्तु वर्गीयानि एव ख ग घ ङ इत्यादि पप ब भ म इति तत्पर्यन्तं केन स्वीक्रियते
कपय खप चट त चट जबगड दश जबगडद धड ध घडद झब झभ न्यमङ्गण व्यर्गीयव्यञ्जनानि अनुनासिक
तदपि सन्ति एव
ओके सर्वे हयवर ह
ञय् इत्यनेन सर्वाणि वर्गीयानि व्यञ्जनानि समीचीनं. धन्यवादः धन्यवादः
धन्यवादः.
तर्हि सीतागणेशम् अस्ति वा सीतागणेशन् अस्ति वा नमस्ते सीतागणेशमस्ति
वा
नास्ति चेत् तर्हि उमा भगिनी अस्ति वा
अस्मि उमा
उमा भगिनि कृपया तर्हि इदानीं किं झै झै
झभ घडद जभ गडद गब गबजडद
झै झै
जपगडद कपै कप
झ घ ध जपगडद खप छटत छटत
कपै कप
सम्यक् इदानीम् इमानि सर्वाणि कानि
वर्गीये थर्ड् अण्ड् फोर्थ् अण्ड् थर्ड् अण्ड् देन् सेकेण्ड् फस्ट्
सम्यक् नाम प्रथम वर्गीयाः प्रथमा प्रथमे द्वितीय प्रथमा द्वितीय तृतीय चतुर्थश्च नाम झै झै इति अनेन स्वीक्रियते तर्हि किम् अन्यत् अम् अम् इति अनेन किं भवति अनन्तरं
हयवर लण्
लन् न न
हयवर लण्
तावदेव इदानीम् अम् इति उक्त्वा आ इ उरिले
मापर्यन्तं
नाम न्यमगणनं पर्यन्तं सम्यक् झर् झर् इति उच्यन्तं
झब झब घडद झबगडद खपचटत चटत कप
शशस सम्यक् अपि च किं रल् रल् रल्
रल् ओके र
अपि ल कुत्र
लयवरट् लङ्
लङ् न न परन्तु प्रत्याहारः इदानीं रल् रल्
रल् ओके रयवरट् यमगणनं सारी हयवरट् लङ्
लङ् न्यमगणना झभा इति इदानीं ल ल ल पर्यन्तं गन्तव्यं परन्तु न केवलं लकारः इत्संज्ञकः लकारः इत्संज्ञकः लकारः कुत्र अल् अल् इत्यनेन किं सर्वेश्वरः
चतुर्दशसूत्राणि
एवं सम्यक् इदानीं रल् सम्यक् रल् इति चेत्
रल् इति चेत् रमगणन झभञ् गडदश् जभगडदश् कप चटत चटतौ चटत कप
इदानीं तर्हि सर्वाणि व्यञ्जनानि इव इति दृश्यन्ते परन्तु कौ द्वा अथवा के द्वे तत्र न अन्तर्भूते रल् इति चेत् न न हल् इति चेत् सर्वाणि व्यञ्जनानि स्वीक्रियन्ते रल् इति चेत् सर्वाणि व्यञ्जनानि इव परन्तु तत्र भेदः
मात्रम् आगच्छति
नाम रा ल रा ल लापि अन्तस्तः सम्यक् नाम या वा विहाय सर्वाणि व्यञ्जनानि एव समीचीनं भगिनि तर्हि अन्यः प्रश्नः तत्र किम् इदानीं केवलं तत्र अस्माभिः पुनः अनेकदा उक्तं परन्तु इदानीं पुनरेकवारं पृच्छामि इदानीं सर्वे स्वराः केन स्वीक्रियन्ते
सर्वेश्वराः
सम्यक्. इदानीम् अ विहाय सर्वेश्वराः केन?
इच्
इदानीं इच् वा समीचीनम्. इदानीम् अन्यत् किमपि अस्ति, उन् 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 इति चिन्तयतु. न नकारः तत्र तावर्गीयः नकारः, मूर्धन्यनकारः, आ इ उन् इति उन् इति
हयवर लण् न्यमगणन
उकारः एव स्वीक्रियते. परन्तु मम प्रश्नः इदानीं कीदृशः, उ इति पाणिनीये यदि उकारः उच्चार्यते, यदि उकारः उच्चारितः पाणिनिना, अनेन उच्चारणेन कति उकाराः स्वीक्रियन्ते?
अष्टादश.
अष्टादश वा?
ओके ओके ओके. उकार ह्रस्व दीर्घ प्लुत ह्रस्व दीर्घ प्लुत देन् अनुनासिक अननुनासिक
षट् भवन्ति.
उदात्त अनुदात्त
उदात्त अनुदात्त स्वरित
अनेन इदानीं कति सम्भवन्ति? उमा भगिनी वदतु
कृपया.
केवलम् उकारं केवलम् उकारः
उकारः उ ह्रस्व अस्ति दीर्घः अपि अस्ति. उकारः चेत् ह्रस्व दीर्घ प्लुत अनुनासिक अननुनासिक स्वरित उदात्त अनुदात्त एय्ट् इण्टु
तथा न. इदानीं दीर्घ ह्रस्व प्लुतः इति त्रिविधः अस्ति. इदानीं तथा प्रतिप्रभेदं द्विप्रभेदः अस्ति, नाम अनुनासिक अनुनासिक, तर्हि 3x2 भवति 6. दीर्घः ह्रस्वः यः सः ह्रस्वानुनासिकः ह्रस्वानुनासिकः, दीर्घः तथापि प्लूतः तथापि, तर्हि 6 प्रभेदाः इति सम्भवन्ति. तदनन्तरं प्रतिस्वारं स्वरत्रयम् अपि आगच्छति, अतः एव 6x3 18 प्रभेदाः एव आगच्छन्ति यथोक्तं तत्र. सम्यक्,
धन्यवादः.
धन्यवादः. तर्हि पूर्णेन्दुमहोदय.
आं महोदय, वदतु.
नमस्कारः. किं तर्हि तत्र गते वर्गे अस्माभिः उक्तम् इदानीम् अण् प्रत्याहारः यः, अनेन प्रत्याहारेण किं स्वीक्रियते? अण् अपि च अण् अन्न च इन् च इति प्रत्याहारद्वयं स्वीकृत्य तत्र किम् अस्माभिः उक्तम् इति स्मरति वा भवान्?
न महोदय, अहं तु गतवर्गे नासीत्.
भवतु नाम, तर्हि इदानीमेव चिन्तयामः. अन्न इत्यनेन किं सम्भवति?
अण् प्रत्याहारे तु अ इ उ इति त्रयः वर्णः.
सम्यक्, समीचीनम्. इन् इत्यनेन किम्?
इति वर्णद्वयम् इति स्वीक्रियते.
सम्यक्, परन्तु किञ्चित् अग्रे गच्छन्तु कृपया, गच्छतु. इ उ तदनन्तरं किं भवति? रीलि पश्यतु तत्र कानि सूत्राणि आगच्छन्ति. रीलिक् ए औङ् ऐ औच् अयवर लङ्
सम्यक् महोदय.
तर्हि इदानीम् अस्माभिः तत्र किं दृश्यते, नकारः द्विवारं तत्र महेश्वरसूत्रेषु आगच्छति. अत एव अस्माभिः प्रक्तने वर्गे किञ्चन कश्चन नियामः इति तथा वक्तुं शक्यते दृष्टः, नाम इन् इन् प्रत्यहारः सामान्यतः परेण नकरेण स्वीक्रियते. नाम इन् वदामः इति चेत् तर्हि सामान्यतः लङ् पर्यन्तं गन्तव्यम्. इदानीम् इन् सामान्यतः इ उ रि लि इ ओ ऐ औ हयवर इति हयवर ल हयवर ल इति निर्दिशति. परन्तु अङ् अन् यः सः सामान्यतः पूर्वेण नाक न नकारेण स्वीक्रियते. नाम अन् इत्यनेन अ इ उ एव स्वीक्रियते इति. तत्र एकः अस्ति अपि अपवादः, परन्तु एतत् इदानीं मास्तु. केवलं तदेव ज्ञेयम् अस्ति यत् इन् इन् ग्रहणं इन् ग्रहणानि सर्वाणि परेण नकारेण, अन् ग्रहणानि तु पूर्वेण इति अस्ति तत्र नियामः. भवतु धन्यवादः. तर्हि किं पठामः वा अस्माकम् इदानीं?
ह अपि द्विवारम् आगच्छति.
ह अपि द्विवारम् आगच्छति, परन्तु ह तत्र भवतु तत्र अस्ति किञ्चित् इदानीं तत्र इदानीं तत्र किं कर्तव्यं पठिना. कदाचित् हर् अथवा वस्तुतः हश् नाम शकार शिवश हश् इति अनेन प्रत्याहारेण कानि व्यञ्जनानि स्वीक्रियन्ते? सर्वाणि मृदूनि हश् इति अनेन स्वीक्रियन्ते. इदानीं हश् वदामि चेत् हयवरला न्यमगणना जभा जभगणद इति इमानि सर्वाणि मृदूनि व्यञ्जनानि सन्ति, नाम वोयिस्ड् व्यञ्जनानि. परन्तु एतत्तु सम्यक्, परन्तु कदाचित् पाणिनिना अपि शशसः इति तत्र चत्वारि व्यञ्जनानि अपेक्षितानि सन्ति. तत्र वस्तुतः अनेकानि कार्याणि सन्ति येषु शशसः इति तेषां कथामपि सङ्ग्रहः कर्तव्यः. इदानीं तं सङ्ग्रहग्रहणम् अधिक तत् सङ्ग्रहग्रहणम् अधिकृत्य पाणिनिना हकारः द्विवारम् उच्चारितः. नाम हश् इति मृदुव्यञ्जनानां मध्ये, अपि च शल् इति किं तत्र उष्मानं वदामः उष्मानां मध्ये अपि हकारः अपेक्षितः भवति. अत एव अयम् उपायः स्वीकृतः, केवलं द्विवारं हकारः उच्चारितः. परन्तु इदानीम् अल् वदामः इति चेत् अथवा हल् वदामः इति चेत् तत्र तेषु सर्वेषु हकारः द्विवारं न स्वीकार्यः, केवलम् एकः हकारः एव तत्र अभिप्रेतः. यद्यपि द्विवारं दृश्यते, परन्तु अभिप्रायः नाम यत् इष्टं पाणिनिना तत् एकः हकारः एव. सम्यक् वा? स्वीकृतं. भवतु तर्हि अग्रे गच्छामः. इदानीं पाणिनीयं सूत्रं कथां पठनीयम् इति अस्ति अस्माकं करपत्रं. तर्हि पूर्णेन्दुमहोदय, भवानपि आरम्भतः एव कृपया पठतु.
आं महोदय. पाणिनीयं सूत्रं कथं पठनीयम्? यणसन्ति बहवः जानन्ति यथा यति अपि इय यद्यपि अत्र इकारस्य स्थाने अकारादेशो भवति. इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते. व्याकरणे कार्याणि एतादृशानि भवन्ति. आदेशः, पूर्वस्थितस्य वर्णस्य स्थाने अन्त्यवर्णस्य उदयः. यदि जुड अपि यद्यपि. आगमः, वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. पठन् जुड आगच्छति न आगमः पठन्नागच्छति. लोपः, वर्णस्य अदर्शनम्. बालकः जुड इच्छति विसर्गलोपः बालक इच्छति.
तावदेव महोदय, कृपया किञ्चित् स्वशब्दैः वदतु, किञ्चित् स्वशब्दैः एव किं विवरणं किमपि ददातु, कृपया ददातु. इदानीं यत् भवता इदानीं पठितं तस्या एव स्वशब्दैः किञ्चित् विवृतिः, किञ्चित् विवरणं कृपया क्रियताम्.
अहं तु मम शब्दैः कथयितुं न शक्नोमि.
भवतु तर्हि, परन्तु किम् अवगत इदानीं यं सन्धिः एतत् मास्तु, इदानीं तत्र त्रीणि कार्याणि तत्र प्रदर्शितानि, नाम आदेशः किम् अवगम्यते वा भवतः?
आदेशः इत्युक्ते पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः. उदाहरणरूपेण यदि इजोड् अपि अत्र ई वर्णस्य स्थाने य वर्णस्य स्थापनः इति आदेशः इति उच्यते.
सम्यक्, समीचीनं, तदेव समीचीनं. तर्हि आगमः,
आगमः, आगमः इत्युक्ते वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. उदाहरणस्वरूपं पठन् आगच्छति, अत्र नकारस्य परम् अन्य एकनकारम् आगच्छति, पठन् आगच्छति. लोपः इत्युक्ते वर्णस्य अदर्शनम्. उदाहरणं बालकः इच्छति, अत्र बालकः ककारस्य विसर्गः न दृश्यते, तस्य लोपः जायते, इति कारणेन बालक इच्छति इति दृश्यते.
सम्यक्, तदेव समीचीनं महोदय, धन्यवादः. तदेव त्रीणि
महोदय, एकः प्रश्नः, अत्र विसर्गः लोपः भवति किन्तु विसर्गः वर्णः नास्ति.
तत्र इदानीं तत्तु दृश्यरूपं विसर्गः, तत्तु कश्चन प्रक्रियायां, प्रक्रिया यदा अस्माभिः परिशील्यते तदा पश्यते अस्म दृश्यते अस्माभिः रु इति पुनरक तत्र सर्वप्रथमं जायते, रकारः, वस्तुतः विसर्गः तत्र नास्ति, तत्र सकारः अस्ति. परन्तु यतोहि अयम् इदं रूपम् अस्माभिः ज्ञायते, बालकः, बालकः इच्छति इति, बालकः इति किं संसिद्धं रूपम् अस्ति. एतद् रूपं केवलं केवलं वाक्यान्ते, सामान्यतः वाक्यान्ते सिद्ध्यति, नाम गच्छति बालकः इति. अपि च केषुचित् वर्णेषु परेषु सत्सु तथापि यथा पतति, नाम बालक बालकरु बालकर् बालकस् पतति इति, तस्मिन् तस्यां प्रक्रियायां तत्र पकारे परे सति सकारस्य वा रकारस्य वा तत्र विसर्गः जायते. इदानीं तत्र प्रक्रियायां पश्यामः इति चेत् तत्र वस्तुतः यथोक्तं भवतः, वस्तुतः तत्र विसर्गः नास्ति, इतः प्राक् सकारः अस्ति, सकारस्य अथवा रकारस्य भवतु नाम रकारस्य लोपः तत्र जायते. परन्तु लोपः नाम किं, लोपः केवलम् तदेव वस्तुतः
अदर्शनम्,
अदर्शनम् एव नाम तत्र वास्तविकं, नाम तत्र व्याकरणदृष्ट्या पश्यामः इति चेत् सकारः वा अथवा विसर्गः वा तत्र अस्ति एव, परन्तु न दृश्यते इति तावदेव, तावदेव वक्तव्यं. परन्तु तर्हि किम् आदेशः आगमः, इदानीं लोपः इति दृष्टः अस्माभिः, आदेशः आगमः, अपि च प्राक्तने वर्गे तत्र किञ्चिदुक्तम्. आदेशः नाम तत्र उच्यते, परिभाषिकम् उच्यते, आदेशः नाम शत्रुवत् आदेशः, यथा शत्रुः आगच्छति तं प्रतिशत्रुं विहाय, प्रतिशत्रुं जीत्य स्वयम् एव स्वस्थानं तत्र अथवा शत्रोः स्थानं स्वीकरोति इति, तथा एव आदेशः आगच्छति, नाम इति आगच्छति, अथवा किं तत्र यदि अपि तत्र इकारः आसीत्, इदानीं नूतनतया यकारः आगत्य इकारं तत्र परिजीत्य स्वयम् एव अस्मिन् स्थाने तिष्ठति इति, अत एव आदेशः इति उच्यते, शत्रुवत् आदेशः। तत्र तु आगमः मित्रवत् इति उच्यते, यथा मित्रम् आगत्य तत्र मित्रस्य समीपे एव स्थानं स्वीकरोति, स्वमित्रं तत्र तिष्ठति स्वम् अपि, अत एव मित्रवत् आगमः भवति। तत्र किं पठन् आगच्छति, तत्र ये वर्णाः आगमात् प्राक् आसीत्, नाम नकारः दीर्घ आकारश्च, ते उभौ तौ उभौ वर्णौ तत्रापि तिष्ठतः, ते तयोर्मध्ये नूतनः कश्चन नकारः आगच्छति इति तावदेव। तत्र नकारः यः प्राक् दृष्टः स इदानीमपि दृश्यते, आकारः यः प्राक् आसीत् सः अपि अत्र अस्ति, अतः मित्रवत् आगमः भवति। सम्यक्, तर्हि अग्रे पमेल सेतुराम अस्ति वा?
तण्डिगञ्चुडाचार्या
कस्य
सेतुराम अस्ति महोदय?
कृपया अग्रे पततु।
कस्यचित् अपि कार्यस्य निर्देशार्थे विधानार्थं सूत्रं भवति, यन् सन्धिः एकं अतः तस्य विधानार्थं सूत्रम् अस्ति। सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम। यण् सन्धेः विधिसूत्रम् इदम्, इको यणति, इकः स्थाने यण् आदेशः भवति, अचि परे समितायां विषये, इकः यण् स्यात् असवर्णे अचि अत्रे इति सूत्रस्य फलितः अर्थः इति नेयम्। इकः षष्ठ्यन्तः, यण् प्रथमान्तम्, अचि सप्तम्यन्तः, त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम्।
सम्यक्, इतः तावत् यत्किमपि अवगम्यते चेत् कृपया किञ्चित् वदतु।
अत्र एक व्याकरणलोके कार्यः अस्ति, आदेश आगमः लोपः, तत्र कश्चित् अर्थः, कस्यचित् निर्देशार्थः, कस्यचित् विधानार्थः अस्ति। यण् सन्धेः एककार्यम् अत्र दशति विधानार्थः, सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तु न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्यं। सो अत्र यण् सन्धेः सूत्र अस्ति इको यणचि, इकः अस्ति इकः षष्ठीस्थाने अस्ति, अत्र आदेशः अचि अस्ति सप्तमवर्णे, इकः यण् षष्ठीस्थाने आदेशः आगच्छति अस्ति प्रथमवर्णे, अतः इकः षष्ठ्यन्तः, यण् प्रथमान्तः, अथ इकः षष्ठान्ते यण् आगच्छति प्रथमम् उदाहरणं यद्यपि इति भवति, यदि अपि ईकारस्य अकारस्य
समीचीनं समीचीनं तदेव. इदानीम् अस्य सूत्रस्य विवरणं
महोदय, एकः संशयः. संहितायाम् अत्यत्र अर्थः कः?
तत्तु वस्तुतः इदानीम् अयम् इदं सूत्रम् एव अग्रे अस्मिन् एव वर्गे तत्र सविस्तरं विवृतं भवति. अत एव इदानीं बहु न वदामि चिमनि, तत्र अग्रिमे पत्रे एव अस्य विवरणं भवति. यदि अत्र यदि तस्मिन् विवरणे पतिते तत्रापि प्रश्नाः स्युः तर्हि तस्मिन् एव समये पश्यामः. इदानीं केवलं तत्र सूत्रस्वरूपं दृष्ट्वा किञ्चित् वक्तुं किञ्चित् तत्र अवगन्तुं प्रयतामहे इति तावदेव अस्माकम् इदानीम् अस्ति प्रयोजनम्. संहितायाम् इत्यस्य पदस्य अर्थः कः? तत् अग्रे एव आगच्छति, अस्मिन् एव वर्गे वदामि. परन्तु इदानीमेव अस्माकं तत्र अस्माकं तात्पर्यम् अस्माकं प्रयोजनं केवलं स्वरूपं दृष्ट्वा इदानीम् इको यनचि इति तत्र किं तत्र को का इयं भाषा कथम् अवगन्तुं प्रभवामः इमां भाषाम् इति तत्र शङ्के उदीते. वस्तुतः इदानीं तत्र केचन सन्ति प्रकारः, केचन सन्ति किम् उपायाः यान् आश्रित्य सूत्रार्थः अपि तत्र सम्पूर्णतया न, परन्तु किञ्चित् सूत्रार्थम् अवगन्तुं शक्यते. इदानीं तत्र अनेके विषयाः तु सन्ति, परन्तु सर्वप्रथमम् इदानीं विभक्तीनाम् अर्थः कः इति सर्वप्रथमम् अस्माभिः ज्ञेयम् अस्ति. यतोहि इदानीं लोके पञ्चमी इति पञ्चम्यान्तं पदं श्रुत्वा वयं तु जानीमः भवतु तत्तु अस्मात् इति श्रुत्वा तत्तु हेत्वार्थे स्यात् अथवा अवधीयार्थे वा स्यात्. अपि च किं सप्तमीयान्तं पदं श्रुत्वा ओ तथा आधारः स्यात् अथवा कश्चन देशनिर्देशः अस्ति इदानीं तस्मिन् नगरे तत्र अस्ति सप्तम्यान्तं पदम् अत एव ज्ञायते अस्मिन् तत्र देशे इति अस्मिन् देशनिर्देश अधिकारनिर्देशः अधिकरणनिर्देशः क्रियते. अस्मात् नगरात् इति श्रुत्वा ओ अस्मात् नगरात् आरभ्य अस्मात् नगरात् अवधि भूय किञ्चित् कोऽपि आगच्छति इति तत्र सर्वम् अवगन्तुं शक्यते. परन्तु इदानीम् अस्मिन् तत्र अस्मिन् व्याकरणलोके विभक्तीनाम् अर्थः कश्चन विशिष्टः अर्थः पाणिनिना एव निर्दिष्टः. इदानीं तम् अर्थं ज्ञातुं वयम् अत्र प्रयतामहे. भवतु तर्हि अग्रे गच्छामः. पमेला भगिनि, पमेला भगिनी अस्ति वा?
आम् आं महोदय,
कृपया अग्रे पठतु. उपरितने सूत्रे
उपरितने सूत्रे इक् यन् अच् इति त्रयप्रत्याहारा सन्ति. प्रत्याहारः नाम वर्णानां समूहः. येषु त्रिषु प्रत्याहारेषु के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु. उपरि दत्तसूत्रे इक् यन् अचि इति त्रयप्रत्याहार वयं दृष्टवन्तः महेश्वरसूत्राणि यत् त्रिषु प्रत्याहारेषु के वर्णाः अन्तर्भूताः सन्ति. इक् वर्णः अस्ति इ उ यण् वर्णे य वर् ळ, अच् वर्णे सर्वाः स्वराः सन्ति.
सर्वे स्वराः सम्यक्. तर्हि अनन्तरम् इको यणचि इति
सूत्रं यथा तथा पाणिनेः अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति. तानि सूत्राणि कार्यं निर्देशन्ति. हैलि कोडिफैड् लेङ्ग्वेज् इत्यस्य माध्यमेन. कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थे आहत्य सूत्राणां संख्या न्यूनातिन्यूनं स्यात् तर्हि संक्षेपार्थं कोड् निर्मितं पाणिनिना. कोड् इत्यस्य माध्यमं किं? विभक्तिः. इयं विभक्तिपद्धतिः का इति अग्रे पश्याम. इको एनिकि एक पाणिनि अष्टाध्यायी एकं सूत्रमस्ति. अष्टाध्यायी अनेकसूत्राणि सन्ति. सर्वे सूत्रं किमपि कार्यं निर्दशन्ति. सर्वे सूत्र एक हैलि कोडिफैड् लेङ्ग्वेज् इत्यस्य माध्यमेन क्रियते. किमर्थम् इत्युक्ते प्रत्येकं लघु भवेत् भवतु इत्यर्थेन निर्मितानि अस्ति. कथं निर्मितानि इत्युक्ते विभक्तिपद्धतिः. सर्वे पदम् एक विभक्तिं दत्तवान् पाणिनिः. एक पद्धति कृतवान् ते आदौ दत्तमस्ति.
एवम् समीचीनं. यथा उक्तं भवत्या, यथा उक्तं मया पिप्राक्, इदानीं विभक्तयः लोके कमपि अर्थं प्रतिपादयन्ति, परन्तु व्याकरणलोके तत्र तेषाम् अर्थः तासाम् अर्थः किञ्चित् भिन्नः दृश्यते. इदानीं कोऽयं विभक्तीनाम् अर्थः तत्तु अग्रे अस्मिन् वर्गे एव इदानीमेव अस्माभिः पच्यते. धन्यवादः. धन्यवादः. तर्हि श्रीरामः श्रीरामः अस्ति वा? नास्ति चेत् तर्हि श्रीप्रिया भगिनी. सापि गतवती इति भाति. इदानीं को अथवा के सन्ति ये इतः प्राक् न पतितवन्तः?
सुजाता अस्मि महोदय.
सुजाता. अन्ये केपि?
नमस्ते महोदय, अञ्जलि अस्मि.
अञ्जलि भगिनी, नमस्कार.
उमा अस्मि.
उमा भगिनी भवती तु प्राक् उमा. तत्र उमा द्वे उमे स्तः इति मन्ये. उमा मीनाक्षी इति
एका.
भवतु तर्हि उमा मीनाक्षी उमा च इति तथा एव विभागं कुर्मः. अन्ये केपि? सुजाता, अञ्जलि, उमा.
भारते देशे.
तर्हि सुजाता भगिनि पाणिनेः
सूत्राणां पद्धतिः. पाणिनेः प्रमुखलक्षणमस्ति पदव्युत्पत्तिः. पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि. अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अमुखवर्णस्य स्थाने अन्यवर्णः अमुखवर्णः लुप्तः अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति. येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चन भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अतः सूचिताः. आगे पठ महोदय. षष्टिविभक्तिः स्थाने प्रथमा विभक्तिः आदेशः आगमः नामकरणम्. सप्तमी विभक्तिः पूर्वकार्यम्. पञ्चमी विभक्तिः परकार्यम्. तृतीया विभक्तिः संयोजनम्.
एवम् इदानीम् एतदेव कृपया विवृणोतु.
षष्टिविभक्तिः
तावदेव भगिनि. तर्हि किञ्चिदेव स्वशब्दैः कृपया वदतु.
पाणिनि लक्ष्यमस्ति पदयुत्पत्ति. पदानि कथं निर्माणं करसति इति विषये पाणिनि सूत्राणि रचयितानि. अमुकवर्णस्य
अमुक नाम कश्चन इति तावत्
अन्यवर्णः आयाति. अमुकवर्ण लुप्तः अपि भवति. एम् ऐ रैट् महोदय?
आमां. तर्हि इदानीम् अस्माभिः त्रीणि कार्याणि दृष्टानि. एतेषां कार्याणाम् एव इदानीम् अन्यैः शब्दैः किञ्चित् तत्र उक्तम्. इदानीम् अमुकवर्णस्य स्थाने अन्यवर्णः नाम कस्याचित् वर्णस्य स्थाने अन्यः वर्णः इति किं कार्यम् इति एतत् कार्यं किं नामकं यदि एकस्य वर्णस्य स्थाने अन्यत् अन्यः वर्णः आगच्छति. न एकस्य स्थाने अन्यः यथा आदेश समीचीनम्. इदानीं कश्चन वर्णः लुप्तः भवति चेत् एतत् कार्यं नाम किम्?
लोपः भवति. बालकः
अपि च कश्चन वर्णः आगतः भवति इति तथा भवति चेत् तर्हि कार्यस्य नाम
आगमः.
सम्यक्.
पठन् प्लस् आगच्छति, पठन् आगच्छति उदाहरणं.
सम्यक् सम्यक्. तर्हि अग्रे एषां संक्षेप किं सङ्केतार्थः
विभक्ति येषां कार्याणां सङ्केतार्थः विभक्तयः प्रयुक्ताः सन्ति. तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति. पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति अधः सूचिताः. षष्टिविभक्ति इत्युक्ते स्थाने. इकः एणचि इकः इस् षष्टिविभक्ति. इकः स्थाने यन् आयाति
यन् तु यन् यन् कस्मिन् तत्र यङः का विभक्तिः
यन् इस् प्रथमा विभक्ति
तर्हि प्रथमा विभक्तिः अर्थः कः
प्रथमा विभक्ति अन्यवर्ण
पततु पततु
प्रथमा विभक्ति आदेशः आगमः नामकरणम्
सम्यक् तत्र अस्मिन् प्रसङ्गे आदेशः एव अर्थः
आदेशः
उक्तं भवति तदनन्तरं सप्तमी विभक्तिः
सप्तमी विभक्तिः पूर्यकारं पूर्यकार्यं पूर्वकार्यं पूर्वकार्यं
कार्यम् अस्य अस्मात् पूर्वं भवति इति सूचयति तदनन्तरं पञ्चमी
न इत्युक्ते किं महोदय पूर्वकार्यं
तर्हि वसा अग्रे आगच्छति परन्तु इदानीम् अचि अचि अचि
अचि परे अचि परे
अचि अचि नाम सप्तमी सप्तम्यान्तं पदं तर्हि अचि वदति किम् अच् अच् वर्णः अस्ति चेत् तस्मात् पूर्वं
पूर्वं
आदेशः भवति तस्मात् पूर्वम् अचि सप्तम्यान्तं पदम्
पञ्चमी विभक्तिः परकार्यं परकार्यं
अग्रे आगच्छति एव
तृतीया विभक्तिः संयोजनम्
संयोजनं नाम समीप वा सामीप्यं वा केवलं 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 संयोगः तत्रापि अग्रे आगच्छति नाम तत्र सामान्यतः यदा पाणिनिः कमपि इदानीं तत्र इतः प्राक् वा इतः परं वा यत्र कुत्रापि केवलं समीपे अस्ति चेत् इति तावदेव अस्य अभिप्रायः आसीत् तर्हि तृतीयान्तं पदं सः प्रयुक्तवान् समीचीनं धन्यवादः
नमस्कारः महोदय मम नाम श्रीरामः अहं म्यूट् मध्ये आसम् अतः एव वक्तुं न शक्नोमि
समीचीनं परन्तु इदानीं तु शक्नोति वा भवान्
शक्नोमि महोदय नूतन हेड्सेट् भवति अतः किञ्चित् क्लेशः
एकः प्रश्नः अत्र पाणिनीयसूत्रेषु विभक्तिः अर्थाः के इति अधः सूचिताः लिख्यते परन्तु षष्ठी विभक्तिस्थाने देर् इस् नो कनेक्षन् बिट्वीन् द टू नो विभक्तिः अर्थाः मीन्स् वाट् इस् द मीनिङ्ग् आफ् दट् बिका पाणिनीयसूत्रेषु विभक्तिः अर्थाः के इति अधः सूचिताः दट् इस् दि इन्ट्रोडक्षन् फार् दिस् फैव् विभक्ति कार्यास् सो षष्ठी स्थाने मीन्स् वेर् द कार्यम् इस् टेकिङ्ग् प्लेस् दट् इस् द षष्ठी विभक्ति अस्ति चेत् दट् वेरि प्लेस् कार्यं करोति
एवं तत् तदेव विभक्तिः निर्दिशति नाम इदानीं यङ्ग् इति अस्ति किं
इन्ट्रोडक्षन् इस् वेरि वेरि कन्फ्यूसिङ्ग् यु नो पाणिनीयसूत्रेषु विभक्ति अर्थाः के इति वाट् इस् मीनिङ्ग् आफ् अर्थाः
अर्थाः नाम किं भवतु नाम तत्तु केवलं तथा लिखितं यथा किञ्चित् इदानीम् अत एव इदानीमेव अस्माभिः तत्र किञ्चित् परिशीलनं दीयते परन्तु तथापि वक्तुं शक्यते इति मन्ये यतोहि इदानीं लोके एव सप्तमी विभक्तेः अर्थः सामान्यतः अधिकरणम् इति उच्यते इदानीं नगरे इति श्रुत्वा नगराधिकारणकं किञ्चित् कार्यं भवति इदानीं नगरे तिष्ठति इति तथा नगराधिकारणकः स्थानव्यापारः इति तथा अस्माभिः बोधः भवति तथापि इदानीं स्थाने इति यदि षष्ट्याः अर्थः स्वीकृताः भवेत् नाम व्याकरणलोके तर्हि किं भवति इकोयनचि इक् स्थानकः इक् स्थानकम् इक् स्थाने युक्तं कार्यं वस्तुतः स्थाने इति किं तथा वदतु तर्हि इदानीं षष्ठीं दृष्ट्वा अहमपि वदामि किमर्थं तथा स्थाने इति सः लिखितवान् नाम स्वरूप् महोदयः किमर्थं सः तदेव लिखितवान् तर्हि कृपया श्रीराम महोदय षष्ठीविभक्तिः
षष्ठीविभक्तिः स्थाने सूत्रे यस्य वर्णस्य प्रत्याहारस्य षष्टिविभक्तिः भवति सः स्थानी भवति इत्युक्तौ तस्य स्थाने अन्यः वर्णः आयाति कः वर्णः आयाति तस्य स्थाने तस्मिन् एव सूत्रे यः वर्णः प्रत्याहारः प्रथमाविभक्त्यन्तः सः उदाहरणार्थम् इको यणचि इकः स्थाने यण् आदेशः भवति इकः षष्ट्यन्तं यण् प्रथमान्तम् इकः यण् अचि संहितायाम् अग्रे पठामि महोदय
तावदेव दृष्ट्वा कृपया किञ्चित् वदतु
अत्र यस्य वर्णस्य षष्टिविभक्तिः भवति सः स्थानी इति उच्यते अत्र यत्र षष्टिविभक्तिः अस्ति तस्मिन् स्थाने कार्यं भवति अत्र तस्मिन् स्थाने एव कार्यं भवति अत्र विभक्तिः प्रथमा विभक्तिः विभक्त्यन्तं यत्र अस्ति सः अत्र आयाति इति सो इति अर्थः अत्र कार्यं भवति षष्टिविभक्तिः स्थाने प्रथमाविभक्त्यन्तम् आयाति
समीचीनं सम्यक् भो तत्र किमपि तत्र सारं स्पष्टमिति मन्ये किञ्चिदेव वदामि स्वशब्दैः एव अहमपि वदामि नाम तत्र स्थाने इति तत्र अर्थः निर्दिष्टः आसीत् पाणिनिना अवसुतः अयम् अर्थः निर्दिष्टः अतः एव इदानीं सूत्रं यत्किमपि सूत्रं यदि अस्माभिः दृश्यते अष्टाध्यायम् इदानीं यस्मिन् सूत्रे किमपि षष्ठ्यन्तं पदम् अस्ति इदानीम् एतत् षष्ठ्यन्तं पदं नाम अयं पदम् इदं पदं षष्टिविभक्तिसहितम् अस्ति चेत् तर्हि अस्माभिः ज्ञायते एतत् पदं स्थानिनं निर्दिशति नाम यदि किमपि कार्यं वस्तुतः आगमः भवतु आदेशः भवतु लोपः भवतु यत्किमपि कार्यं स्वीक्रियते अस्य कार्यस्य किमपि स्थानम् अपेक्षितम् कश्चन सङ्केतः नाम कश्चन एड्रेस् अपेक्षितं भवति इदानीं कस्य आदेशः नाम कस्मिन् स्थाने अयम् आदेशः भवति कस्य आदेशः इति कस्य लोपः कस्य आगमः इति प्रश्ने सति षष्ट्यन्तं पदम् एव इदं स्थानं निर्दिशति अपि च भगिनि तत्र भवत्याः प्रश्नाः इति तत्र पश्यामः चेत् इदानीम् इको यानचि इति अस्मिन् उदाहरणे इक् तत्र इदानीं व्युत्पत्तिदृष्ट्या पश्यामः इति चेत् तत्र इक् प्लस् किमपि षष्टिविभक्तिः इति तथा इक् योगः किं षष्टि इति तथा एव चिन्तयतु इदानीं षष्ठी इति यत्र षष्ठी अस्ति तत्र स्थाने इति योजयतु तर्हि अस्मिन् परिवर्तने सति इक् स्थाने इति इदानीं सूत्रार्थः भवति इदानीं षष्टिविभक्तेः तस्य स्थाने यदि स्थाने इति पदं पठामः तर्हि सूत्रार्थः सुलभः भवति. तर्हि इक् स्थाने इति अस्मिन् पाठे सूत्रार्थः स्वयमेव अवगम्यते. अपि च वस्तुतः एकं सूत्रम् अस्ति अष्टाध्यायं, तत्तु अत्र न उल्लिखितं, परन्तु एकं सूत्रमस्ति षष्ठी स्थाने योगा इति सूत्रमस्ति. अस्मिन् सूत्रे पाणिनिना एव उक्तं षष्ठी नाम षष्ठी विभक्तिः स्थाने युज्यते, स्थाने योगां स्थाने योगं निर्दिशति, अथवा स्थाने योगः यस्याः सा स्थाने योगा इति तथा अस्य सूत्रस्य अर्थः भवति. अतः एव स्थाने इति वस्तुतः पाणिनिना स्वयम् एव इदं पदं निर्दिष्टं षष्ट्याः विभक्तेः सोऽयम् अर्थः इति पाणिनिना स्वशब्दैः एव तथा लिखितम्. सम्यक् वा?
एकं प्रश्नं, नामकरणम् इति चेत् अतः
इदानीम् अग्रे आगच्छति, अग्रे आगच्छति. इदानीं तत्र श्रीराम् महोदय.
आं महोदय,
भवान् प्रथमाविभक्तिं किञ्चित् अग्रे.
प्रथमाविभक्तिः आदेशः आगमः नामकरणम्. सूत्रे यस्य वर्णस्य प्रथमा विभक्तिः भवति सः आयाति षष्ठी विभक्त्यन्तस्य वर्णस्य स्थाने. तत्र प्रथमा विभक्त्यन्तस्य वर्णस्य नाम आदेशः. सूत्रे तादृशः षष्ठी विभक्त्यन्तः वर्णे नास्ति चेत् वर्णौ नास्ति चेत् तर्हि सः प्रथमा विभक्त्यन्तः वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम आगमः. अन्यत्र प्रथमा विभक्तिः नामकरणस्य सूचिका. अत्र आदेशः इको यणचि, इकः स्थाने यण् आदेशः भवति. इकः षष्ट्यन्तं, यण् प्रथमान्तम्, इकः यण् अचि संहितायाम्. अत्र प्रथमाविभक्तिः आदेशः या आगमः या नामकरणम् इति सूचयति. अत्र यत्र षष्ठी विभक्त्यन्तम् अस्ति अत्र प्रथमाविभक्त्यन्तं यति सूचयति, प्रथमाविभक्त्यन्तं यदि सूचयति तत् अत्र आगच्छति षष्ट्यन्तस्य स्थाने.
सम्यक्.
अत्र षष्ठी विभक्त्यन्तम् अत्र नास्ति चेत् सूत्रे प्रथमाविभक्त्यन्तम् अस्ति किन्तु षष्ठीविभक्त्यन्तं नास्ति चेत् अत्र आदेशः आगन्तुं न शक्नोति खलु. अतः अत्र आगमः अत्र प्रथमाविभक्त्यन्तं यति सूचयति तत्र वर्णः अत्र आयाति आगमः इति. अत्र स्थाने न आगमः अस्ति. अपरस्य अनन्तरं प्रथमाविभक्तिः अत्र अपरस्य वर्णस्य स्थाने अपि नास्ति, अनन्तरम् आगमः अपि नास्ति चेत् तानि सूत्राणि नामकरणम् इति सूचयति.
एवं सम्यक्. तर्हि तत्र उदाहरणं दत्तम् आदेशस्य.
तर्हि अत्र आदेशस्य उदाहरणं दत्तं किमर्थम् इत्युक्ते इको यणचि इति सूत्रे इकः इति षष्ट्यन्तम् अस्ति. षष्ट्यन्तम् अस्ति अत्र कारणेन अत्र कारणेन प्रथमाविभक्त्यन्तं यदि सूचयति तत् आदेशः इति अस्ति. किमर्थम् इत्युक्ते अत्र षष्टिविभक्त्यन्तम् अस्ति, अतः कारणेन एव आदेशः अस्ति. षष्टिविभक्त्यन्तं नास्ति चेत् आगमः वा या नामकरणं वा भवेयुः भवेत्.
भवेत् सम्यक् सम्यक् तदेव. इदानीं प्रथमा प्रथमान्तं पदं प्रथमायाः अर्थः वस्तुतः स्वयं पाणिनिना कुत्रापि न दत्ताः, परन्तु इदानीम् अस्माभिः परिशीलनेन तत्र अस्माभिः न यक्तृभिः परिशीलनेन ज्ञायते वस्तुतः तत्र सामान्यतः प्रथमाविभक्तिकं पदं यत् तत् कार्यम् एव विधीयते. इदानीं कार्यं किं नाम आदेशः आगमः यत्किमपि विद्धिः किं सूत्रे विधीयते तत्र किं सूत्रस्य लक्ष्यं तदेव प्रथमाविभक्तिकपदेन तदेव विधीयते. इदानीम् आदेशः यदि सूत्रविधिः अस्ति चेत् तर्हि स्वयम् आदेशः एव प्रथमान्तेन विधीयते. आगमश्चेत् आगमश्चेत् तर्हि सोऽयम् आगमः इत्यादि अत एव. परन्तु तत्र कथम् एतत् सर्वं ज्ञेयं, तत्र सम्यक् सर्वदा एव अयं नियामः तत्र सुदृढः न भवति इति तत्र वदामि, परन्तु सामान्यतः तथा चिन्तयितुं शक्यते. इदानीं यत्र षष्ट्यन्तं पदमस्ति, यद्यस्थानीनिर्देशकं पदम् अस्ति, तस्मिन् स्थले तस्मिन् सूत्रे सामान्यतः प्रथमान्तं पदम् आदेशम् एव निर्दिशति. तत्तु नास्ति चेत् नाम षष्ट्यान्तं पदं नास्ति चेत् तर्हि सामान्यतः आगमः वा नामकरणं वा लोपः वा इति तथापि तत्र प्रतिप्रसङ्गं प्रतिसूत्रं तत्र सविशेषं तत्र ज्ञेयम् अस्ति. परन्तु सामान्यतः अयं नियामः ततः अत एव नियामः इति न तथा प्रायिकः कश्चन प्रकारः इति तथा वक्तुं शक्यते अस्ति. इदानीम् आदेशस्य उदाहरणम् इति इको यनचि इति अनेकवारम् अस्माभिः दृष्टम्. इकः षष्ट्यान्तपदस्य स्थाने इक् स्थाने यङ् आगच्छति, अत एव आदेशः भवति. आदेशः इति अस्य कार्यस्य नाम, अत एव यङ् प्रथमान्तपदम् आदेशम् एव निर्दिशति इति.
प्रश्नम् अत्र, यद्यपि यदि स्थाने अपि आगच्छति, ई स्थाने आगच्छति, यदि अस्ति षष्ठी अस्ति वा
तर्हि यदि अपि. इदानीं षष्ठीविभक्तिकपदं किम् इक् वा सूत्रे
यदि षष्ठीविभक्ति वा
न तथा न, एतत्तु न यदि तु अव्ययमेव न तत्तु न. इदानीं तत्र इदानीं यदस्माभिः तत्र निर्दिश्यते, यदस्माभिः इदानीं परिशील्यते, तत् केवलं सूत्रम् अधिकृत्य एव. इदानीं तत्र सूत्राणि सन्ति, अष्टाध्याय्यां सूत्राणि सन्ति. इदानीम् इमानि सूत्राणि सर्वाणि कानिचन कार्याणि निर्दिशन्ति, तत् तानि कार्याणि अनेकविधानि अपि सन्ति, कानिचन कार्याणि सन्धिविषयकानि एव. इदानीं सन्धिकार्यं सर्वदा वर्णेषु एव प्रवर्तते. नाम वर्णविषयकं कार्यं तत्तु सन्धिकार्यं सामान्यतः, तत्र न केवलं सन्धिकार्यं, परन्तु सन्धिकार्यं चेत् तर्हि वर्णविषये एव अस्ति. अत एव सूत्रं वर्णविषयकम् एव, इको यङ् अचि. इदानीम् अस्य सूत्रस्य अन्वयः कः? षष्ट्यान्तं पदम् इको, प्रथमान्तं पदं यङ् अचि, सप्तम्यान्तं पदम् अचि इति. इदानीम् अस्य सूत्रस्य अर्थः कथम् अवगम्यते? यदि ये विभक्तीनाम् अर्थाः अस्माभिः लोके नाम भाषायाम् इदानीं ये अर्थाः अस्माभिः प्रतिविभक्तिं प्रयुज्यन्ते ते अर्थाः सूत्रेषु तथा उपयोगिनः न भवन्ति इति एकम्, अपि च तान् आश्रित्य सूत्रं कदामपि अस्माभिः अवगन्तुं न शक्यते. इदानीम् इको नाम षष्ट्याः अर्थः सम्बन्धः इति, इदानीम् इङ्क् सम्बन्धे इक् सम्बन्धः, यङ् किं यङ् प्रथमायाः अर्थः तत्र भवतु कर्ता वा कर्म वा स्यात्, यन् कर्तृकः, अचि नाम अचि तत्र अधिकरणार्थम् अचि अच् देशे इति किमपि तथा अर्थः सम्भवति, परन्तु सोऽयम् अर्थः पाणिनिना नाभिप्रेतः. पाणिनिः तथा सूत्रं विरचितवान् अथवा तथा विभक्तीनाम् अर्थान् अभिप्रेतवान् यथा सूत्राणि कथमपि तत्र अवगन्तुं शक्यन्ते. इदानीमेव तत्र अवगमनार्थं तत्र परिभाषिकानि नाम व्याकरणलोके एव उपयुक्तानि विभक्त्यर्थाः उपयुक्ताः विभक्त्यर्थाः अस्माभिः ज्ञेयाः सन्ति. अत एव षष्ट्यन्तस्य अर्थः स्थाने इति चेत् तर्हि तत्तु न लोके द्रष्टव्यं, केवलं सूत्रे. इदानीं सूत्रे इक् इति षष्ट्यन्तमस्ति, अत एव अस्य षष्ट्यन्तपदस्य अर्थः भवति स्थाने. तर्हि इ उ रि लि इति अस्य स्थाने यारल वा इति आदेशः भवति इति सूत्रार्थः अस्ति, इतः प्राक् परिशीलितः सूत्रार्थः भवति. परन्तु इदानीं तत्र वाक्ये यदि सप्तम्यान्तं षष्ट्यान्तं यत्किमपि पदं स्यात् तत्तु सर्वम् इदानीम् अप्रासङ्गिकम्, अस्य तत्र अत्यन्तम् अप्रस्तुतम् अत्यन्तम् अप्रासङ्गिकम्, अस्य कोऽपि इदानीं सम्बन्धः नास्ति.
समीचीनम्
अवगम्यते वा? सम्यक् वा? भवतु तर्हि अञ्जलि भगिनी अस्ति वा?
आं महोदय.
कृपया तत्र आगमः
आगमः लुङ् लाङ् रुङ् क्ष्व दुदात् लुङ् लाङ् रुङ् च परे चेत् धातुरूपी अङ्गस्य अट् आगमो भवति. लुङ् लाङ् लुङ् रुक्ष सप्तम्यन्तम् अट् प्रथमान्तम् उदात्तः प्रथमान्तम् अङ्गस्य अट् उदात्तः लुङ् लाङ् लुरुक्ष्व अतः आगमः कुत्र भवति, कश्चित् स्थाने न भवति इति विवरण अस्ति लिख्यते. उदाहरणार्थम् अयोगः पठ योगः अयोगः इत्युक्ते अपठत्.
तत्र अट् आगमः कुत्र अस्ति जानाति वा भगिनि? जानासि
अट् धातुः पूर्व आगमः दृश्यते.
सम्यक्.
आगमः अतः अङ्गम् इत्युक्ते प्रत्याहार नास्ति
तत्र, नास्ति आट् इति केवलं
संज्ञा अस्ति. अट् टकार अट् पदस्य टकार अकारस्य आगम अथवा कार्यं निर्दिशते. आगमः धातु पूर्वं भवति
पूर्वं भवति अपि च
लुङ् लाङ् लुक्षु इति सप्तम्यान्तम् अस्ति चेत् कार्यं तस्य पूर्व भवति इत्यनेन अ पठ पूर्व आगम स्थित दृश्यते
सम्यक् अपि च अट् अस्मिन् सूत्रे किं तत्र किं विभक्तिकं किं विभक्त्यान्तकं पदम्
अट् प्रथमान्तम् अस्ति
सम्यक् अतः एव अस्य एव अत्र उदाहरणं दत्तम् इदानीं प्रथमान्तम् अस्ति इति चेत् तर्हि आदेशः वा आगमः एतत्तु आगमस्य अर्थः आगमस्य उदाहरणम्
सूत्रे षष्ठ्यान्तं पदं नास्ति चेत् आगमः निर्दिशते प्रथमान्तं पदम् अट् आगमः निर्दिशते
सम्यक् समीचीनं धन्यवादः धन्यवादः तदेव इदानीम् अस्माभिः सर्वैः ज्ञायेत यथा किं लङि लङि तत्र अट् आगमः अस्ति गच्छति अगच्छत् इति यः अकारः तत्र धातोः प्राक् श्रूयते दृश्यते वा सः अट् आगमः कश्चन अस्ति अत्र इदानीं सः तु न कस्यापि स्थाने आगच्छति अत्र इतः प्राक् किमपि नासीत् यत् अतः प्राक् किमपि आसीत् गच्छ धातुः विकारणप्रत्ययः तत्र विभक्तिः तिङ्गान् तिङ् विभक्तिः इमे सर्वे अत्र इति अत्र एव तिष्ठन्ति परन्तु अपि च तत् तदनन्तरं मित्रवत् आगमः कश्चन भवति अट् आगमः अत्र टकारः एव निर्दिशति तत्र धातोः प्राक् इत्यादिकं तत्सर्वम् अग्रे भवेत् भवति
महोदय स्पष्टं नास्ति एकवारं पुनः
सूत्रार्थं वा
उदात्तः प्रथमान्तम् इति न जानामि
तत्तु किम् इदानीं किञ्चित् वदामि इदानीं तत्र सूत्रे त्रीणि पदानि सन्ति लुन् लन् ऋक्षु इति एकं पदं तत्तु सप्तम्यान्तम् इदानीम् एकः समासः कृतः द्वन्द्वसमासः लुङ् च लङ् च लृङ् च लुङ् लङ् लृङ् इति एकः समासः तस्य तत्तु इतरेतरद्वन्द्वः अतः एव इतरेतरद्वन्द्वाः द्वन्द्वेषु सर्वदा इदानीं सङ्ख्या ईदृशी स्वीकरणीया इदानीं अङ्गानं सङ्ख्या का सा सङ्ख्या एव समासस्य द्वन्द्वसमासस्य भवति इदानीं रामश्च लक्ष्मणश्च रामलक्ष्मणौ इति भवति अत्र तु अङ्गानि त्रीणि अङ्गानि सन्ति अतः एव लुङ् लङ् लृङः इति तथा बहुवाचनात्मकः द्वन्द्वसमासः अस्ति इदानीम् अस्य बहुवाचने सति सु इति भवति किं तत्र सप्तमी विभक्तिः सु अत एव लङ् लृङ् लृक्षु इति तथा कश्चन किञ्चन सान्धिकार्यम् अस्ति तत् इदानीं मास्तु लुङ् लङ् लृक्षु इति सप्तम्यान्तं पदं सम्भवति तत्तु निदर्शति इतः प्राक् इदानीं लङ् लुङ् लङ् लृङ् इति तदपि अग्रे अस्माभिः दृश्यते इति इमे सर्वे केचन प्रत्ययाः सन्ति लकारात्मकः प्रत्ययाः सन्ति तर्हि इदानीं प्रक्रियायां धातुः अस्ति तदनन्तरं लुङ् वा अथवा लङ् वा अथवा लृङ् वा निर्दिशति तत्र सम्भवति इति चेत् युज्यते इति चेत् तर्हि अड् आगमः भवति अट् अट् आगमः भवति अट् आगमः तत्र टकारस्यापि कश्चन अस्ति कश्चन अस्ति पारिभाषिकः अर्थः नाम टकारः निर्दिशति धातोः प्राक् आगमः भवति इदानीं धातोः अनन्तरं कदाचित् आगच्छेत् प्राक् कदाचित् मध्ये अपि कदाचित् आगच्छेत्, इदानीं तकारः अस्ति चेत् अत्यन्ताव् टकिटाव् इत्यनेन सूत्रेण अट् आगमः सर्वदा धातोः प्राक् आगच्छति. अतः एव इदानीं प्रक्रियायाम् आ धातुः लुङ्लन् रिङ्ग् वा इति इदानीम् अस्मिन् क्रमे स्थित्वा तदनन्तरं सर्वं परिवर्त्य तत्र सर्वस्य परिवर्तनं भवति, तत्र अकारः आगच्छति, विभक्त्यः आगच्छन्ति इत्यादिकम् आगच्छति चेत् तर्हि अपठत् वा सम्भवति, अपतिष्यत् वा सम्भवति, तत्र किं लुङि अपत् इति किमपि सम्भवति, अथवा अपति लुङ् नाम औरिस्त्, तत्र तस्यापि अनेके अपत्सीत् अपि सम्भवति, भवतु नाम अपचीत् स्यात् अपचीत् इति मन्ये सम्भवति, भवतु नाम तत्र अनेके तस्यापि अनेकानि रूपाणि सन्ति, परन्तु तत्र सर्वदा अट् आगमः भवति. अपि च अट् अकारः इति अस्माभिः ज्ञायते, अकारः तत्र अष्टदश प्रकारकः सम्भवेत् इति एकम्. अपि च ओके इदानीं तत्र अट् इति अस्मिन् निर्दिष्टे ज्ञायते सोऽयं ह्रस्व अकारः इति, ह्रस्व अनुनासिकः अकारः इति अनेन अपि ज्ञायते. कथां ज्ञायते तत्त्वे पश्यामः, परन्तु तथा पाणिनिः सविशेषं वदति, इदानीं न कोऽपि ह्रस्वः अनुनासिकः, परन्तु किं तत्र अनुदात्तः एव, न क्षम्यताम् उदात्तः एव. इदानीं लोके नाम तत्र सामान्यभाषायां, सामान्यसंस्कृतभाषायां सोऽयम् उदात्तः वा अनुदात्तः वा तस्य कोऽपि इदानीम् अस्माभिः कोऽपि उपयोगः प्रयोगः नास्ति, परन्तु वैदिकभाषायां तत्तु अत्यन्तं महत्त्वपूर्णमस्ति. तत्र इदानीं इमेषु रूपेषु तत्र सर्वदा उदात्तः एव भवेत् इति.
सो दि सूत्र उदाहरणं दास्यति,
उदाहरणं लङ् लङ्घः उदाहरणं.
No, but I'm not able to understand this udaharanam with the agama rule.
Tatra udaharanam kim vada idam rule kim vidhi kim vada ti lung lang ringshu iti eteshu trishu pratyayeshu areshu satsu angasya prak at sambhavati. इदानीम् अस्मिन् उदाहरणे वस्तुतः तत्र अन्तिमं रूपं दत्तं, परन्तु इदानीम् अस्य सूत्रस्य उदाहरणम् अन्विष्यते इति चेत् तर्हि पट् योगः लङ् इति चिन्तयतु, तदनन्तरम् अनेन सूत्रेण आ योगः पट् योगः लङ् इति भवति इति तावदेव. पट् योगः लङ् इति चेत् तर्हि अस्य
अत्र केन वर्णः आगमः
अट् अट् इति अस्य आगमः
अट्
ओके
महोदय अत्र उदात्त पदस्य किमर्थम् अत्र
तदेव तत्र वेदे अयं विषयः महत्त्वपूर्णः अस्ति. इदानीं न केवलम् अपत् अस्माभिः यदा अपठात् यत्किमपि अपचिष्यत् अथवा अपचीत् यत्किमपि अस्माभिः प्रयुज्यते, अत्र अस्माकं तु नास्ति भेदः उदात्तः वा अनुदात्तः, परन्तु वेदे अयं भेदः सर्वदा एव अनुसरणीयः अस्ति. अत एव अयम् अकारः इदानीं लङि प्राक् आगतः अकारः सः वेदे उदात्तः एव इति निर्दिशति, परन्तु अस्माभिः तत्र नास्ति इदानीम् उपयोगः अस्य, परन्तु ज्ञातं वा सूत्रार्थः ज्ञातः वा?
अहं चिन्तयामि यदि धातु तु हो परे लङ् लुङ् लुङ् लकारस्य वर्ण अस्ति तर्हि तस्य पूर्व अकार आगमः रूपेण आगच्छति.
सम्यक्, तदेव तदेव सूत्रार्थः, स एव सूत्रार्थः. इदानीं धातोः इदानीं लुङ् लङ् रिङ् अस्ति चेत् धातोः परे, तर्हि अस्मात् तर्हि अस्मात् धातोः प्राक् अ इति अट् आगमः सम्भवति. इदानीं कथां ज्ञायते धातोः प्राक् धातोः पूर्वं वा, तत्तु टकारः सूचयति. परन्तु अस्य इदानीम् अर्थः इदानीम् अस्य 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 इदानीं विषयः नास्ति, तत्तु अग्रे जानीमः. कथम् आगमेषु तत्र किम् इत्संज्ञकाः वर्णाः सर्वदा सूचयन्ति कुत्र आगमः भवति. तकारः अस्ति चेत् आगमे, तर्हि आङ्गस्य प्राक् अयम् आगमः आगच्छति इति. परन्तु इदानीं तु एतत् अस्माभिः इदानीं नास्ति अस्य विषयः, अस्य प्रसङ्गः इदानीं मास्तु. अत्र अग्रे सर्वदा आगमः यद् अस्माभिः परिचय.
एकं प्रश्नम् अस्ति, अङ्गस्य इति पदस्य अर्थं किम्?
तत्तु अपि अस्ति, भवतु तत्तु अङ्गस्य तथा चिन्तयतु. तत्रापि सूत्रमस्ति, यस्मात् प्रत्ययविधि प्रत्यय तद् इदानीम् अस्ति अस्य कश्चन अर्थः, कश्चन परिभाषिकः अर्थः. परन्तु केवलं यत् यस्मात् प्रत्ययः विहितः भवति सो अयं पदस्य भागः अङ्गः इति, अथवा अङ्गं, क्षम्यतां, तत् एव अङ्गम्. इदानीं धातुः अस्ति, धातोः अनन्तरं लङ् विधीयते, अत एव सोऽयं धातुः अङ्गम् इति अस्मिन् अस्मिन् क्रमे अस्मिन् सोपाने अङ्गम् इति परिभाषिकं पदम् इति अनेन परिभाषिकेन पदेन व्यवह्रियते व्याकरणलोके. अत एव अस्मिन् सोपाने धातुः इति एव अङ्गम्. परन्तु तथा न सर्वदा, कदाचित् इदानीम् अग्रे गच्छामः चेत् तर्हि अट् अट् योगः धातुः कदाचित् सोऽयम् एव समुदायः अङ्गसंज्ञां प्राप्नोति इति, परन्तु तत्तु अग्रे भवति. अस्मिन् स्थाने अस्मिन् स्थले धातुः एव अङ्गं भवतु. परन्तु इदानीं समयः जातः इति मन्ये, तर्हि अग्रिमे वर्गे नामकरणम् इति अस्मात् आरभ्य पठामः.
धन्यवादः. धन्यवादः महोदय. अट् आगमे भवति इति उक्तमस्ति.
धन्यवादः.
अतः अण्वर्णे तु अयुन् रुल्रु केयुङ् अयौ छय वर तावत् पर्यन्तं तु गच्छति,
तत्तु
आगन्तुं शक्नोति.
शक्नोति, तथा एव इदानीं वस्तुतः सूत्रं स्वयम् एव नावगम तत्र तत्र इदानीं यदि व्याख्यानं यत्किमपि विहाय सूत्रं स्वयम् एव परिशील्यते, तत्तु अत्यन्तं क्लिष्टं स्यात्. तथा सुतरं न ज्ञायते. इदानीम् अट् यथा भवती वदति, अट् इति तत्र किं कोऽयम् अट् प्रत्याहारः अट् वा आगमः अट् वा इति कथां ज्ञातुम् कथामपि ज्ञातुं न शक्यते. इदानीं प्रकरणवशात् वा अथवा किमपि व्याख्यानं व्याख्यां दृष्ट्वा वा तदेव ज्ञातुं शक्यते. परन्तु इदानीम् अस्मिन् प्रसङ्गे टकारः इति तत्र प्रत्याहारभूतः महेश्वरसूत्रेषु अन्तर्गतः टकारः इति न, परन्तु इत्संज्ञकः कश्चन अस्ति, सः टकारः आगमं निर्दिशति. टकम इति तत्र त्रयः वर्णाः आगमान् निर्दिशन्ति, परन्तु तत् प्रतिप्रकारम् एव ज्ञेयम्.
न अवगतवान् सम्यक्तया, अग्रे पश्यामः.
अग्रे पश्यामः.
धन्यवादः.
धन्यवादः.
धन्यवादः महोदय.
धन्यवादः महोदय. धन्यवादः.
धन्यवादः.